ప్రతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్నోతిభిః సేదసాదనం ప్రణో దేవే సరస్వతీ వాజేభిర్వాజినీవతే ధీనామవిత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇష శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూర ఘోరా పాపకాశిని తయానస్తను వాశంతమయా గిరిశంతాభిచాకషీ యామిషం గిరిశంతహస్తే విభర్ష్యస్తవే శివాంగిరిత్రదాం కురుమాహి గుంసీః పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛావదామసి యథా నః సర్వమిజ్జగద యక్ష్మగుం సుమనా అసత్ అధ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్ అయేగుశ్చ సర్వాజంభయన్ సర్వాస్య యాతు ధాన్యః అసోవ్యస్తామ్రో అరుణ ఉత బభ్రుః సుమంగళః యే చేమాగుం రుద్రా అమితో దిక్షు శ్రుతా సహస్రశో వైశాగుం హేడయీమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉదయనం గోపా అదృశన్నదృశన్నుదహార్యః ఉదయనం విశ్వాభూతాని సదృష్టో మృణయాదినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీఢుషే అథో యే అస్య సత్వానోహం తేభ్యో కరన్ నమః ప్రముంచ ధన్వనస్త్వముభయోరాత్మియోర్జాం యాస్య తే హస్త ఇషవః పరాతా భగవో వపా అవతత్య ధనుస్త్వగుం సహస్రాక్షశదేషుధే నిషేర్య శల్యాణాం ముఖా శివో నః సుమనా భవ విర్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీఢుష్టమహస్తి బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయ పరిభుజా నమస్తే అస్త్వాయుధాయానాతతాయ ధృష్ణవే ఉభాభ్యాముదతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వదః అథో య ఇషుధిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्रिषीमते पतीनां पतये नमो नमो बब्लुषाय विद्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विनिक्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिघागुंसद्भ्यो मुष्णतां पतये नमो नमो श्रीमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सवदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतवरिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः ह्यवर्धिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च नेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुध्नियाय च नमः शोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रवृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमस्तेक्ष्णे श्रवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नेप्याय च नमः शोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय चावट्याय च नमो वश्याय चावश्याय च नमो मेध्याय च विद्युत्याय च नमः मेध्रियाय चातप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कुल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय चालाद्याय च नमः शष्प्याय च भेण्याय च नमः शिखत्याय च प्रवाह्याय च नम हिरण्याय च प्रपत्याय च नमः किगुंशिराय च शयणाय च नमः गवर्धिने च बुलस्तये च नमो गोष्ट्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च वर्णशज्ञाय च नमो भगुरमाणाय चाभिघ्नते च नमः आक्षिदते च प्रक्षिदते च नमो भक्तिरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्र नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्चन ममत् याते रुद्र शिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कवर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे च दुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनोमयस्कृति क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिदा तदश्यामतव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्थोकेतनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वलेर्हविष्मन्तो नमसा विधेमते आरात्ते भोग्न उत पूरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अभिषदेव ब्रूह्यथा च न शर्म यच्च द्विवरा सुहिश्रुतम् गर्तसदम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृणाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्तु सेना परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरधायो अवस्थिरा मगवद्भ्यस्तनुष्वमीधस्तोकाय तनयाय मृडया मीडुष्टमशिवतमशिवो नः सुमना भवा परमे वृक्ष आयुधन् निधाय कृत्रिम् वसा न आचर पिनाकम् बिभ्रदागहे विगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहोत्सव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्र अधिभूम्याम् तेषागुम् सहस्रयोजने वदन्वानि तन्मसि अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवाश्रितिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासख्यवर्धिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पथाम् परिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति सुकावन्तो निषङ्गिणः ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రామిదస్తిరే తేషాగుం సహస్రయో జనే వదన్వాని తన్మసే. నమో రుద్రేభ్యో యే పృథివ్యాం యే అంతరిక్షే యే దివి యే శామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రదేశీర్దశో దేశీర్దశోర్ధ్వాస్మేభ్యో నమస్తే నో మృడయంతు తేయం ధుష్మో యశ్చ నో ద్వేష్టితం భోజం భేదధామి. త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వందనాన్ మృత్యోర్ముక్షేయమామృతాత్. యో రుద్రో అగ్నవ్యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వ భువనా వివేశదస్మై రుద్రాయ నమో అస్తు. ఏతే సహస్రమయుతం పాశా మృత్యో మత్యాయ హంతవే. తాన్ యజ్ఞస్య మాయయా సర్వానవయజామహే. మృత్యవే స్వాహా మృత్యవే స్వాహా. ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః. హేనాన్నేనాభ్యాయ స్వా. నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహే. తముష్టు హియస్విషు సుదన్వాయు విశ్వస్య క్షయ దివేషజస్య. యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో. భిర్దేవమసురంధువస్య. అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః. అయం మే విశ్వభేషయోయగు శివాభిమర్షణః. ఓం శాంతి శాంతి శాంతిః. ఓం శం చ మే మయశ్చ మే ప్రియం చ మే ను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ఘృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిశ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసూశ్చ మే శీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే శోషా చ మే సుదినం చ మే. శాంతి శాంతి శాంతి. ఓం అత్రినాత్వా క్రిమే హన్మే కణ్వేన జమదగ్నినా విశ్వావసోర్బ్రహ్మణా హతః క్రిమీణాగుం రాజా. అప్యేషాగస్తవతిర్హతః అథో మాతాతో పితా అథో స్థూరా అథో క్షుద్రా అథో కృష్ణా అథో శ్వేతా అథో ఆశాతికా హతా శ్వేతాభిః సహ సర్వే హతా. ఆహరావద్యా శ్రుతస్యః విశో యథా తః సత్యం యదమయ్యమస్య జంభయోః ఆదదామి తథా హి తత్ కణ్ఫణ్వసే. ఓం శాంతి శాంతి శాంతి.
विश्वदेवैः अहम् मित्रावरुणो वा विभ्रम्यहमिन्द्राग्नि अहमश्विनो वा अहम् सोमामाहनसम् विभ्रम्यहम् त्वस्तारभूतभूषणम् भगम् अहम् दासामित्रवेणम् हविष्पाते सुप्राव्ये यजामानाय सुन्वते अहम् रास्ते सङ्गमानि वधूनाम् चिकितुषे प्रथमाज्ञानाम् तामा देवाव्याददु पुरुत्रा भूरिस्थात्राम् भूर्या वेषयन्ति मया सो अन्नामत्ययो विपश्याति य प्राणीत्ययै शृणोत्युक्तम् अमन्तवो मान्तवुपक्षयन्ति श्रुधि श्रोतः श्रद्धिवन्ते वदामि अहमेव स्वयमिदम् वादामि दुष्टम् देवेभिः हृतमानुषेभिः यम् कामयेतम् कामग्रम् कृणोमि तम् ब्रह्माणम् तमृषिम् तम् सोमेधाम् अहम् रुद्राय धनुरातानोमि ब्रह्म त्रिषि शरा देहन्तवाहो अहम् जनाय समधम् कृणोम्यहम् यावा पृथिवी आविवेशाम् अहम् सोमे पितरामस्य मूर्धन् मम योनिरस्वा अन्त सामुद्रे ततो वितिष्ठे भुवनानुविश्वो तामून्द्याम् स्मरणोपस्पृशामि अहमेव वाता इव प्रवाम्य प्रवामाण भुवानानि विश्वा परो इव पर एना प्रोथित्ये तावाति मयिना सम्मा भुवा शान्ति शान्ति शान्तिः ॐ भूमिर्भोग्नार्द्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदिते निमन्नादमन्नाध्यायादधे आयङ्गो पृष्णिरक्रमे दशनम् मातरम् पुनः पितरम् च प्रयन्सुमः त्रिगुम् श्रद्धामविराजदिवात्पतङ्गायसि श्रिवे प्रत्यस्य वहद्युभिः अस्य प्राणादमानत्यन्तश्चरति रोचना व्यक्षन्महिषस्वः यन्वा क्रुद्धः परो वपमन्युना यतवर्या स्वकल्पमग्ने तत्तव पुनस्त्वोदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनुदध्वसे आदित्या विश्वे तत्तेवावसवश्च समाभरन् मनोद्योषिद्युषतामार्जम् विच्छिन्नम् यज्ञगुम् समिमम् ददातु बृहस्पतिस्तनुतामिमम् नु विश्वे देवा इहमादयन्ताम् मेदिनि देवि वसुन्धरा स्यात् वसुधा देवि वासवे ब्रह्मवर्चस पितृणागुश्रोत्रम् चक्षुर्मनः देवि हिरण्यगर्भिणी देवि प्रसोवरे सदने सत्यायने सीता समुद्रवति सावित्रि हनो देवि मह्यङ्गी महीधरणि महोव्यतिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा आयुमति जलशयनि श्रियम् धाराजा सत्यम् धो परिमेदिनी स्वपरिधत्तम् परिगाया विष्णुपत्नी महीम् देवीम् माधवी माधवप्रिया लक्ष्मी प्रियसखीम् देवीम् नमाम्यच्युतवल्लभा धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नोधरा प्रचोदयात् महीम् देवीम् विष्णुपत्नीमयोन्या प्रतिचीमेनागुम् हविषाय जामः त्रेधा विष्णुर्गाय विचक्रमे महीम् देवम् पृथिवीम् अन्तरिक्षम् तच्छ्रोणैतिश्रव इच्छमाना पुण्यग्श्लोकम् यजमानाय कृण्वते शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाशुचय पावकायासुजात कश्यपोयासिन्द्रः अग्नेया गर्भम् ददिरे विरूपास्तान आमश्यङ् शोना भवन्तु यासागुम् राजा वरुणो याति मध्ये सत्यानृते अवमश्यम् जनानाम् मनुश्रुत सुचयो या पावकास्तान आमश्यङ् शोना भवन्तु यासा देवादिविकृण्वन्ति भक्षय अन्तरिक्षे बहुधा भवन्ति या पृथिवीम् पयसो नन्ति शुक्रास्तान आमश्यङ् शोना भवन्तु श्येन मा चक्षुषा पश्यतामशिवया तनुवोम पृषतम् पशम् मे सर्वागुम् अग्नेगुम् रप्सुषदो हुवेव मैवच्चु बलवोजु निधत्ता पवमानस्तु वर्जनः पवित्रेण विचर्षणिः यः पोता स पुनातु मा हुदन्तु मा देवजनाः हुदन्तु मनवो धिया हुदन्तु विश्व आयवः जातवेद पवित्रवत् पवित्रेण पुनाहि मा शुक्रेण देवदीध्यत् अग्ने क्रत्वा क्रतुम् रणो यत्ते पवित्रमर्चिषे अग्ने विततमन्तरा ब्रह्म तेन बुलीमहे उमाभ्या देव सवितः पवित्रेण सवेन च इदम् ब्रह्म बुलीमहे यैष देवी पुनति देव्यागात् यस्मै भौमि तनुवो नैतमृष्ठाः तया मदन्त सहमाध्येषु मयज्ञस्यामपतयोरयीणा वैश्वानरो रश्मिभिर्मा पुनातु वात प्राणेनेश्विरो मयो भूः ज्यावा पृथिवी पयसा पयोभिः ऋतावरि यज्ञिये मा पुनीता बृहद्भिः सवितस्तृभिः वर्षिष्ठैर्नेवमन्मभिः अग्ने दक्षै पुनाहि मा येन देवा अपुनता एनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म मुनीमहे यः पावमाने रज्येति ऋषिभिः संवृतगुम् रथम् सर्वगुम् समूतमश्नाति स्वरितम् मातरिष्वना पावमानेर्यो अध्येति ऋषिभिः संवृतगुम् रथम् तस्मै सरस्वती दुहे क्षीरगुम् सर्पिर्मधोदकम् पावमाने स्वस्त्ययनीः सुदुनाहि पयस्वतेः ऋषिभिः संवृतो रतः ब्राह्मणेष्वमृतगुम् हितम् पावमानेर्दिशन्तु नः इमं लोकमथो अमुं कामान् समर्थयन्तु नः देवैः समाभृताः भावमाने स्वस्त्ययने सुरमाहि कृतस्तुचः ऋषिभिः समृतो रसः ब्राह्मणे स्वमृतगुम् हितम् येन देवा पवित्रेण आत्मानम् पुनति सदा तेन सहस्रधारेण पावमान्य पुनन्तु मा प्राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो भयम् भूतम् ब्रह्म पुनीमहे इन्द्रः सुनीति सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या यमो राजा प्रमृणाभिः पुनातु मा ज्ञातवेद मोर्जयन्त्या पुनातु भूर्भुवः सुवः संयो रावृणीमहे ज्ञातुम् यज्ञाय ज्ञातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्जिगातु भेषजम् शन्नो अस्तुर्निपदे सं चतुष्पदे ॐ शान्ति शान्ति शान्तिः यो ब्रह्मा ब्रह्मण उञ्जहार प्राणेशिर वृत्तिवासा पिनाकी ईशानो देव सन आयुर्धधातु तस्मै श्रोमि हविषानृतेन विभ्राजमान शरीरस्य मन्य रोचमानो घर्मरुचिर्य आगात् समृत्युपाशानमनुध्यघोरानिमायुषेण मृतमस्तु देवः ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भयमा दधात् पुरुरूपम् जयन्तम् सुवर्णरम् भङ्ग्रहमर्कमर्चम् तमायुषे बन्धयामो घृतेन श्रियम् लक्ष्मी मौमलामम्बिकाङ्गाम् षष्ठेन्द्रयामिन्द्रसेने युनाहुः ताम् विन्द्याम् ब्रह्मयो निगुंसरूपामिहायुषि तर्पयामो घृतेन दाक्षायण्य सर्वयोन्यः सयोन्य सहस्रसो विश्वरूपाभिरूपाः ससो नवः सपतयः सयोध्य आयुषेण कृतमिदम् जुषन्ताम् दिव्यागण बहुरूपा पुराण आयुश्चिरो न प्रमत्रन्तु वीरान् तेभ्यो जुहोमि बहुधा धृतेन मान प्रजागुम् वैरिषो मोत वीरान् एकम् पुरस्ताख्यैदम् बभूवयतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुम् साम् पराय स नो हविर्घृतमिहायुषे तु देवा मसु रुद्रानादित्यान् मरुतो दसाध्यान् रघोन्यक्षान् गन्धर्वागश्च पितृगश्च विश्वान् भगोत्सर्पागश्चाङ्गिरतोऽथ सर्वा ऋतगुम् हुत्वा स्वायुष्य मायामशश्वत् विष्णोत्वन्नो अन्तमः शर्म यच्छसहन्त्याम् प्रतिधारामनुष्ठुत उत्सम् दुर्रति अक्षितम् ॐ शान्ति शान्ति शान्तिः ॐ ब्रह्मात्मन् वदसृजता तदकामयता बहुस्मानापद्येयेति आत्मन्नात्मनित्या मन्त्रयता तस्मै दशमगुम् भूत प्रत्यशृणोत् स दश भूतो भवत् न च ओतो हवेनामैषः तम् वा एतम् न च ओतम् सन्तम् न च ओतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम् भूत प्रत्यशृणोत् स सप्त होतो भवत् सप्त होतो हवैनामैषः तम् वा एतगुम् सप्त होतगुम् सन्तम् सप्तभूतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्टगुम् भूतः प्रत्यशृणोत् षड्भूतो भवत् षड्भूतो हवैनामैषः तम् वा एतम् शृणोतगुम् सन्तम् षड्भूतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमगुम् भूतः प्रत्यशृणोत् स पञ्चभूतो भवत् पञ्चभूतो हवैनामैषः तम् वा एतम् पञ्चभूतगुम् सन्तम् पञ्चभूतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थगुम् भूतः प्रत्यशृणोत् स चतुर्भूतो भवत् चतुर्भूतो हवैनामैषः तम् वा एतम् चतुर्भूतगुम् सन्तम् चतुर्भूतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः तमब्रवीत् त्वम् वै मेने दिष्टगुम् भूतः प्रत्यश्रोषेः त्वयेनाख्यातार इति तस्मान्नुहैनागुश्चतुर्होतार इत्याचक्ष्यते तस्माच्चुश्रोष पुत्राणागुम् हृद्यतमः नेदिष्टो हृद्यतमः नेदिष्टो ब्रह्मणो भवति य एवम् वेदा आत्मने नमः राजाधिराजाय प्रसन्नसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु शान्ति शान्ति शान्ति।